इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य हैदराबादनगरस्य बाह्यक्षेत्रे बोलारम स्थले राष्ट्रपति निलयम् इत्यत्र विभिन्नानाम् उपक्रमाणाम् उद्घाटनं शिलान्यासं च करिष्यति। तदनु राष्ट्रपतिः श्वः सिकन्दराबादस्य रक्षाप्रबन्धन महाविद्यालयाय राष्ट्रपतिध्वजं प्रदास्यति। तस्मिन् एव दिवसे सायंकाले राज्यस्य गणमान्यजनेभ्यः प्रमुखेभ्यः नागरिकेभ्यः शिक्षाविदभ्यश्च राष्ट्रपतिनिलयम् इत्यत्र औपचारिकं स्वागतं भविष्यति। ह्यः राष्ट्रपतिः द्रौपदी मुर्मुः पञ्चदिवसीय दक्षिणप्रवासाय राष्ट्रपतिनिलयम् सम्प्राप्तवती। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः अद्य चीनदेशस्य बीजिंग नगरे भारत चीन देशयोः विशिष्ट प्रतिनिधीनां वार्तायां भागं स्वीकरिष्यति। अस्याः विशिष्ट वार्तायाः उद्देश्यं पूर्वीय लद्दाख क्षेत्रे सैन्य गतिरोधस्य कारणात् चतुर्वर्षाणि यावत् अवरुद्धानां सम्बन्धानां पुनरुद्घाटनमिति वर्तते। श्रीडोभालः स्वीयेन चीनदेशीयेन समकक्षेण विदेशमन्त्रिणा च वांग यी इत्यमुना साकं विशेषप्रतिनिधीनां त्रयोविंशतितमस्य चरणस्य वार्तामपि विधास्यति। अस्याः महत्वपूर्णवार्तायाः प्राग् चीनदेशेन ह्यः सूचितं यत् अक्टूबरमासे चतुर्विंशतिदिनांके ब्रिक्सशिखरसम्मेलनावधौ रूसदेशस्य कजाननगरे निजोपवेशनसमये प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिः शी जिनपिंग इत्यनयोः मध्ये समुत्पन्नसामान्यावधारणायाः आधारे प्रतिबद्धानां क्रियान्वयनाय चीनदेशः भारतेन सह कार्यं कर्तुं सज्जो वर्तते। पञ्चविंशत्यधिकद्विसहस्रतमवर्षस्य जनवरी मासात् श्रीलंकादेशं गन्तुं निःशुल्क पारगमनानुमतिपत्र प्राप्तानां नवत्रिंशत् देशानां नागरिकेषु भारतीयाः अपि भविष्यन्ति। नवदिल्ल्यां इण्डिया फाउण्डेशन इत्यनया संस्थया आयोजिते एकस्मिन् संवाद कार्यक्रमे श्रीलंकादेशस्य विदेशमन्त्रिणा विजिता हेराथ इत्यनेन घोषणा कृता इयमस्ति। असौ कथितवान् यत् आगामिनि जनवरी मासे संसदीय राजपत्र सूचना प्रख्यापयिष्यते, यस्य अन्तर्गतं श्रीलंकादेशः भारतं समेत्य नवत्रिंशत् देशेभ्यः निःशुल्करूपेण पारगमनानुमतिपत्रं प्रदास्यति। रक्षामन्त्री राजनाथसिंहः ह्यः नवदिल्ल्यां मन्त्रालयस्य परामर्शसमितेः सम्मेलनस्य अध्यक्षतां कृतवान्। एतस्मिन् सम्मेलने नूतनानां रक्षा सार्वजनिकक्षेत्रस्य उपक्रमाणां भूमिकानां कार्याणां च चर्चा समनुष्ठिता। अपि च समितिसदस्यानां कृते वित्तीयांकानां आधुनिकीकरणस्य मूलधनव्ययस्य निर्यातस्य वर्तमानसंशोधनविकासपरियोजनानां विषये अपि सूचनाः प्रदत्ताः। मॉस्को नगरे ह्यः विद्युत द्विचक्रिकायाने गुप्त विस्फोटकेन रूसदेशस्य परमाणु संरक्षणबलस्य प्रमुखः सेनापतिः इगोर किरिलोव इत्येषः सहायकेन सह मारितः। किरिलोव इत्येषः रूसदेशे हतः वरिष्ठतमः सैन्यपुरुषः अस्ति, तथापि युक्रेनदेशे क्रेम्लिन सैन्यस्य आक्रमणम् सम्प्रति अपि अनुवर्तते। विस्फोटानन्तरं युक्रेनदेशस्य सुरक्षासेवा अस्य आक्रमणस्य दायित्वं स्वीयकरोत् इति कथ्यते। महिलानां क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ नवी मुम्बय्याः डीवाई पाटिल क्रीडांगणे द्वितीये महिलानां 20-प्रति-20 अन्ताराष्ट्रिय द्वन्द्वे वेस्ट इंडीज दलेन भारतं 9 स्थोभैः पराजित्य तिसृणां स्पर्धानां श्रृंखला 1-1 इत्यंकेन समानं कृतमस्ति। अस्याः प्रतिस्पर्धायाः अन्तिमा स्पर्धा श्वः क्रीडिष्यते। इति वार्ताः।